गणपतिम् आचार्यान् मातापितरन् सर्वान् देवतान् नत्वा अद्यतनकक्ष्यां प्रारम्भं कुर्मः। अतीव पुण्ये अस्मिन् चातुर्मास्ये तत्र अस्माकं श्री श्री गुरुन् नत्वा तेन उक्तमार्गेण गच्छन् तत्र निष्कामकर्म कुर्वन् चित्तशुद्धिं प्राप्नुमः। भक्तिसिञ्चनेन तत्र एकाग्रता श्रद्धा इत्यादि जायते, तत्र तेन ज्ञानमपि तत्र प्राप्तुं शक्यते। तत्रापि भक्ति इत्युक्ते गुरुचरणाम्बुजभक्तिः भगवद्भक्तिश्च, तेन भगवद्भक्तिश्च। महत्पादरजोभिषेकात् विना तत्र सिद्धिः, ज्ञानसिद्धिः वा मोक्षसिद्धिः न भवति। तत्र महत्पादरजो अभिषेकम् इत्युक्ते महत्पादाः के? सद्गुरुपादाः, सद्गुरुचरणाः एव। महत्पादरजोभिषेकात् विना तत्र ज्ञानं न लभ्यते, मुमुक्षुत्वमार्गेषु गन्तुमपि न शक्नुमः। साधनाचतुष्टये साधनानि चत्वारि सन्ति, साधनान्यत्र चत्वारि सन्ति: नित्यानित्यवस्तुविवेकता, इहामुत्रफलभोगवैराग्यम्, शमात्कसम्पत्तिः, शम दम उपरति, तिथा श्रद्धा, अनन्तरं समाधि, मुमुक्षुत्वं, मोक्षस्य इच्छाभावः यदस्ति तत् मुमुक्षुत्वम्। एतत् सर्वमपि तत्र श्रवण मनन निदिध्यासन इत्यादि मार्गेण तत्र अस्माभिः कर्तव्यं भवति, तेन संन्यासर्हाः मुक्त्यर्हाः अपि भवामः इति तत्र अस्माभिः गतसु बहुषु कक्षासपि अस्माभिः दृष्टमस्ति। तत् प्रथमं तावत् अर्थावगमनम्, द्वितीयं तावत् तत्र अस्माभिः तस्य जीवने अभ्यासकरणं तत्र अस्माभिः स्वीकर्तव्यमस्ति। साधनाचतुष्टयं यत् उक्तमस्ति तत्सर्वं तत्र इतोपि अस्माभिः तत्र पठितव्यं चेत् तत्र प्रथमं तावत् ब्रह्मसूत्रभाष्ये पठितुं शक्यते, अनन्तरं विवेकचूडामणि, अपरोक्षानुभूति इत्यादि यद्यद् ग्रन्थाः सन्ति, श्रीशाङ्करेण लिखिताः ग्रन्थाः यत्सर्वं सन्ति तत्सर्वम् अस्माभिः तत्र अवलोकनं कर्तुं शक्यते। तत्र विवेकचूडामण्यामपि सः उक्तवान्, साधनान्यत्र चत्वारि कथितानि मनीषिभिः, येषु सत्स्वेव सन्निष्टः यदभावे न सिध्यति। यत् यस्य साधनचतुष्टय अभावे सिद्धिर्न भवति, तदर्थमेव एतत् मार्ग श्रीशङ्कराचार्येण तत्र लिखितमस्ति आचार्यशङ्करभगवत्पादैः, अस्य मार्गस्य प्रतिष्ठापनं प्रतिपादनञ्च कृतमस्ति। साधनान्यत्र चत्वारि कथितानि मनीषिभिः, येषु सत्स्वेव सन्निष्टः यदभावे न सिध्यति इति अतीव सम्यक् तत्र विवेकचूडामण्यामुक्तमस्ति। अपरोक्षानुभूतिमध्ये अपि तत्र अतीव सम्यक् प्रतिपादितमस्ति। अन्यदपि तत्र पुस्तकं लभ्यते, ग्रन्थो लभ्यते, साधनचतुष्टयसम्पत्ति इति, तत्र ग्रन्थकर्ता न जानीमः, परं पुस्तकं तावत् वर्तते साधनचतुष्टयसम्पत्ति इत्येव। तत्रापि तत्र अतीव विस्तारतया तत्र साधनचतुष्टयमार्गेषु दत्तमस्ति। ज्ञानवेदान्तमार्गेषु साधनचतुष्टयस्य शमादिषट्कसम्पत्तेश्च अतीव तत्र प्रधान स्थलमस्ति। इट् फार्म्स् द फौण्डेशन् आर् द एडिफिस् फार् द एण्टैर् वेदान्तज्ञानमार्ग द साधनाचतुष्टयं, द निष्कामकर्म भक्ति ज्ञानमार्गाः, द श्रवणमनन निदिध्यासन इत्यादि मार्गाः, आल् दीस् फार्म् द बेसिक् आफ् द एण्टैर् वेदान्तशास्त्र इट् सेल्फ़्, विच् इस् वै दिस् चार्ट् गेट्स् बिकम्स् वेरि वेरि इम्पार्टेण्ट् फार् अस्, अण्ड् वेन् वि बिल्ड् अवर् नालेज् अवर् गीताध्ययनम् आन् दिस् चार्ट् इट् इस् वेरि ईजि फार् अस्. अग्रे गच्छामश्चेत् आगामि तत्र मासे गोकुलाष्टमी अपि भवति, तत्रापि तत्र अस्माकं गुरवः केचन सन्ति, तैः तत्र कृष्णस्य कान्सेप्ट् यदस्ति, Krishna, what is the concept of Krishna, was one of the questions which was being discussed in one of the classes. And then when we were discussing that, the final outcome of that, after understanding all the activities, Antegat Pashyamascheta, Krishna equal to Supreme Bliss. That is what we get as the answer. Krishna ha ityukte tatra leela jalaha ananda swarupi eva shri krishna ha. And any krishna bhakta yah kopi asti chete yada saha ananda roop swarupi bhavati tada saha naija krishna bhakta ha bhavati, he becomes a real and inherent krishna bhakta, nija krishna bhakta ha bhavati saha tatra he becomes a natural Krishna Bhakta whenever he is in a blissful and happy state of mind. Because Yadavayam Pashyamaha Krishna Jananam Leela Jalamasit Krishnasya Tatra Balya Vishesham Pashyamaschet Sarvada Ananda Mayamayava Asit Tatra Yatkimapiva Bhavatu Tatra Navanita Chauryam Nochet Tatra Balanam Sakashe Tatra Prema Bhavaha Tatra Gopikanam Upari Tatra Ya Bhakti Aradhana Anugraha Bhavaha Asite Tatrapi Dashtum Shakyate Sarvatrapi Tatra Prema Prema Ananda Etadrusha Gunaha Eva. This is what signifies Krishna, and Krishna Bhaktaha will also be like this, and he will also attain that state of mind, was what was finally discussed. Tadarthameva Tatra Yada Yada Tatra Moha Kalilam Bhavati Karpanya Dosho Apahata Swabhavaha Bhavati Tastra Asmakam Buddhihi Mohena Achaditam Bhavati Tada Para Vasudevaha Vasudevaha Ityuktekaha Vasu Achadane Iti Dhatoho Nishpannaha Vasudevaha Isha Vasyam Idam Sarvam Yatkincha Jagatyam Jagat Tena Tektena Bhunjitaha Magrita Kasya Svidhanam Iti Isha Upanishad Isha Vasyopanishad Madhyapi Likitamasti Tadrsha Sarvavyapi Vishwam Vishnur Vashatkaraha Ityarabdha Vishwam Yaha Asti Vishnuhu Yaha Asti Paravasudevaha Saha Vyapnoti Yada Saha Asman Vyapnoti Tada Ananda Vyapakaha Bhavamaha Tena Asmakam Sadhana Marge Tatra Shaktihi Bhavati Anantram Sadhana Marge Saphalyam Api Bhavati Ante Mumukshutva Sadhana Sanyasta Sadhana Api Bhavati Ityeva Ityuktva Adyatana Kaksham Tatra Prarambham Kurmaha Yataha Shlokeshu Vayam Yada Gachamaha Tada the final objective where we have to reach the Supreme Bliss Paramananda Stiti, we should never forget that. We should not get too intricated also into the technicalities of the shloka also. Asmakam Tatra, we should know the foundation where we are standing, which is the Vedanta Marga. Kutra Gantavyam Ante Tatra Mumukshutva Sanyasa Marge Tatra Nivritti Margeshu Gatva Tatra Parabrahma Parabrahma Sakshatkaram Prati Gantavyam. That is just to remind ourselves of the foundation and the destination, and the marga which we have taken for this is the study of Bhagavad Gita and the introduction to the Sanskrita Bhasha, on which our Vedanta scriptures are also present. So it's a double advantage what we are trying to get: introduction to Bhagavad Gita and introduction to Sanskrita basics. Pashyamaha Tatra Asmabihi Purva Sankhya Yogaha Yadasti Tat Svikritamasti Swadharma Charanam Svikritamasti Karma Yogasyapi Tatra Arthavagamanam Kritamasti Tatra Api. There is an interesting connotation to the Vakya Yogaha Karmasu Kaushalam. So we were just going through some bhashyas, and at that time we found this interesting commentary: Yogaha Karmasu Kaushalam. There are two options available for us to understand this. Option number one is Karmasu Kaushalam. Karmasu Kaushalam, expertise in whatever we are doing is yoga. That is one bhashya which can be understood. Yadyat vayam kurmaha karyam tat sarvam samyak karaniyam, we should do it with high extreme excellence. That is one of the interpretations. Anyadekam api interpretation dattamasti karmasu yogaha eva kaushalam. What would that be? What does that mean? கர்மசு இன் ஆல் அவர் ஆக்டிவிட்டீஸ், யோக பீயிங் ஈக்குவல் மைண்டட், பீயிங் வித்தவுட் எக்ஸ்பெக்டிங் த ஃப்ரூட்ஸ், பீயிங் டிட்டாச்ச்ட் டு த ஃப்ரூட்ஸ் அண்ட் ஹேவிங் அன் ஈக்வானிமிட்டி ஆஃப் மைண்ட் இஸ் கால்ட் அஸ் கௌசலம். வாட் இஸ் எக்ஸ்பர்டீஸ் ஆஃப் டூயிங் ஒர்க் இஃப் சம்படி ஆஸ்க்ஸ்? யோக கர்மசு யோக ஏவ கௌசலம் கேன் ஆல்சோ பி அண்டர்ஸ்டுட் லைக் தட். த ஃபர்ஸ்ட் ஆப்ஷன் வாஸ் கர்மசு கௌசலம், டூயிங் எவ்ரி திங் வித் ஹை எக்ஸ்பர்டீஸ். வி சா த ஸ்டோரி ஆஃப் த ஸ்கல்ப்சர், வி சா அதர் எக்ஸாம்பிள்ஸ் ஆல்சோ. ஃபார் எக்ஸாம்பிள் வி ஆர் ஆல்சோ மென்ஷனிங் அபவுட் அவர் குரு ஸ்ரீமதி அனந்தலட்சுமி பாகா ஆல்சோ, ஹவு ஈவன் ஸ்மால் ஸ்மால் மைக்ரோ ஆக்டிவிட்டீஸ் அண்ட் ஹவு வித் ஹை லெவல் ஆஃப் ஹை லெவல் ஆஃப் எக்ஸலன்ஸ் அண்ட் பர்ஃபெக்ஷன் everything is planned. We were just mentioning about that also, how even we have elders at home who will also be doing that. So all those, if we take, that will become karmasu kaushalam eva yogah iti ekam definition bhavitum shakyate. Anyattavat karmasu yogah eva kaushalam, if we, in all the activities what we are doing, if we are in a yoga state of mind, that is a detached equanimity state of mind, wherein we do not expect any fruits and we are totally unaffected by the fruits of that action, தாதிருஷ பாவஹ தாதிருஷ சுரூபஹ தாதிருஷ லக்ஷணமேவ கௌஷலம் ந அன்யத். இட் இஸ் நாட் ஜஸ்ட் கெட்டிங் இட் டெக்னிக்கலி ஆர் அகடமிக்கலி ரைட், இட் இஸ் அபவுட் டூயிங் இட் வித் சச் அ மைண்ட், ஒன்லி தென் இட் பிகம்ஸ் கௌஷலம். ஏவம் தத்ர அஸ்மாபிஹி தத்ர அர்த்தத்வயம் ஸ்வீகர்த்தும் சக்யதே. கர்மசு கௌஷலம் யோகஹ இஸ் த ஃபர்ஸ்ட் ஒன், கர்மசு யோகஹ ஏவ கௌஷலம் இத்யபி ஸ்வீகர்த்தும் சக்யதே. அண்ட் வி ஆல்சோ சா ஹவு த வேர்ட் கௌஷலம் கேம் இன் டு எக்ஸிஸ்டன்ஸ். தத்ர யத்ர சாத்ராஹ குருகுலேஷு சாத்ராஹ குஷான் லாத்தும் கத்ர கச்சந்தி, தே கோ டு கட் த கிராஸ் குஷான் லாத்தும் கச்சந்தி. தத்ர கிம் பவதி குஷ சேதன சமயே அதீவ தத்ர வி ரிக்வயர் அன் எக்ஸ்ட்ரீம் ஸ்கில் அண்ட் டெக்ஸ்டரிட்டி வென் வி ஆர் கட்டிங் த கிராஸ் த தர்பா கிராஸ், எல்ஸ் வாட் இட் வில் டூஸ் இட் வில் ஜஸ்ட் கட் அவர் த ஸ்கின் அண்ட் இட் த ஃபிங்கர்ஸ் வில் ஸ்டார்ட் ப்ளீடிங், விச் இஸ் வை தட் எக்ஸ்ட்ரீம் டெக்ஸ்டரிட்டி அண்ட் கான்சன்ட்ரேஷன் அண்ட் ஃபோக்கஸ் அண்ட் ஹோல்டிங் ஹவு வி ஹவ் டு ஹோல்ட் த கிராஸ் அண்ட் ஸ்லோலி கட் இட் அண்ட் பிரிங் இட் டு த குரு இன் த ஓல்ட் டேஸ் வென் தேவர் டூயிங் த குருகுலா சிஸ்டம் டு த ஆச்சாரியா. தத்ர கௌஷலம் தேனைவ தத்ர குஷம் குஷான் லுனாதி இதி குஷலஹ குஷலஸ்ய பாவஹ கௌஷலம். தாதிருஷ கௌஷலம் கதா பவதி கர்மசு? யதா கர்மசு யோகரீத்யா பவாமஹ டிடாச் பவாமஹ ததா ஏவ கௌஷலதா அஸ்தி இதி, தட் இஸ் வென் வி கேன் பி கால்ட் அஸ் அ சப்ஜெக்ட் மேட்டர் எக்ஸ்பர்ட் இன் எவ்ரி யோகா, தட் இஸ் வென் வி கேன் பி கால்ட் லைக் தட். தட் இஸ் வாட் தட் இஸ் அனதர் இன்டர்பிரிட்டேஷன் ஃபார் யோகஹ கர்மசு கௌஷலம். So having taken those kind of interpretations and understanding karma yoga, we went further and samadhu achala buddhihi, taking these words arjunaha prichati tatra, he asks four questions. Sitapragnasya bhashaka stitadihi kim prabhasheta kim asita kim vrajeta, based on this Krishna explains தத்ர கஸ்ய பிரஜ்ஞா பிரதிஷ்டிதா, ஹூஸ் மைண்ட் இஸ் ஆல்வேஸ் பிரதிஷ்டிதா இஸ் எஸ்டாப்ளிஷ்ட். வி சா த கிளியர் டிஃபரன்சியேஷன் பிட்வீன் அ சாதகா அண்ட் ஸ்தித பிரஜ்ஞா. ஸ்தித பிரஜ்ஞா நைஜஸ்வபாவேன இன்ஹெரண்ட்லி சஹ தத்ர த்வீதராக பயக்ரோத துக்கேஷ் அனுத்விக்னமனாக சுகேஷ் விகதஸ்பிரஹ, ஹி லிவ்ஸ் லைக் த. ஆக்சுவலி இட் இஸ் இஸ் நேச்சுரல் ஸ்டேட் ஆஃப் அஃபேர்ஸ், பட் அ சாதகா ஹூ இஸ் ட்ரைங் டு டூ திஸ் தத்ர விஷயா விநிவர்த்தந்தே நிராஹாரஸ்ய தேஹினஹ பரம் சித பிரஜ்ஞஸ்தாவத் ரசவர்ஜம் ரசோப்யஸ்ய பரம் திருஷ்ட்வா நிவர்த்ததே. வென் ஹி ஹஸ் சீன் த சுப்ரீம் பிளிஸ் பரம் திருஷ்ட்வா, வென் ஹஸ் ஆல்ரெடி சீன் த சுப்ரீம் பிளிஸ், ஆல் த அதர் திங்ஸ் ஆர் வெரி வெரி ட்ரிவியல் அண்ட் நத்திங் எல்ஸ் இன்ஃபுளுயன்சஸ் எக்ஸைட்ஸ் மேக்ஸ் எம் ஃபீல் ஆர் மேக்ஸ் எம் ரியாக்ட். ஆல் த அதர் திங்ஸ் மெட்டீரியலிஸ்டிக் எத்யதபி அஸ்தி தத் சர்வம் தத்ர தான் ந பாதந்தே ஏவ தத்ர ஸ்தித பிரஜ்ஞ புருஷான் ந பாதந்தே. ஏவம் தத்ர அஸ்மாபிஹி திருஷ்டம் ஆசீத் நாஸ்தி புக் ஆஃப்டர் சீயிங் தட் வி கேம் அக்ராஸ் டு பிரசாதே சர்வதுக்கானாம் ஹானிரஸ்யோபஜாயதே. வி ஆல்சோ சா த அனர்த்த பரம்பரா யதஸ்தி தியாயத விஷயான் பும்ச சங்கஸ்தேஷூபஜாயதே சங்காத் சஞ்சாயதே காம காமாத் குரோத குரோதாத் சம்மோக சம்மோகாத் ஸ்மிருதிபிரஹ ஸ்மிருதிபிரம்சாத் புத்திநாச புத்திநாசாத் சம்பூர்ண பிரநாச ஏவ பவதி இதி அஸ்மா திருஷ்டமாசீத். வாட் இஸ் த ஆல்டர்னேட் டு தட்? தியாயத இன்ஸ்டெட் ஆஃப் விஷயான் டூ இட் அஸ் தியாயத பகவத் சரணான், புட் இட் அஸ் தியாயத சத்குரு சரணான், தியாயத சத்குரு சரணான் பகவத் சரணான் சத்சங்கேஷு ஜாயத்தே, सत्संग ध्यायतो विषयान् पुंसः संगस्तेषु उपजायते. हियर ध्यायतः सत्संग चरणान् ध्यायतः सद्गुरु चरणान् ध्यायतः भगवत चरणान् सत्संगेषु उपजायते. तेन सत्संगात् किं भवति? सत्संगात् सत्संगत्वे निस्सङ्गत्वं भवति, डिटैचमेंट भवति. निस्सङ्गत्वं डिटैचमेंट भवति, निस्सङ्गत्वे निर्मोहत्वं, निर्मोहत्वे निश्चलत्वं, निश्चलत्वे जीवन्मुक्तिः भवति. वि केन् जस्ट् मॉडिफाइड टू द पॉजिटिव वे. एंड ऑल्सो अग्रे अपि उक्तम् आसीत् यः रागद्वेषवियुक्तः भवति सः तादृश विधेयात्मा. विधेयात्मा इत्युक्ते सितप्रज्ञः. हि गोज़ ऑन टू गेट प्रसादमधिगच्छति. यदा सः प्रसादं प्रसादम् अत्यन्त परमानन्दं प्रेमानन्दं भगवतः आनन्दं ब्रह्मानन्दं यदस्ति तदेव प्रसादं. प्रसादमधिगच्छति. प्रसादे सर्वदुःखानाम् आध्यात्मिक आधिभौतिक आध्यात्मिक आदिभौतिक आदिदैविक इति तत्र तापत्रयानां बाह्य आन्तरिक इति इत्यपि तत्र दुःखद्वयानां अपि च तत्र आदि व्याधि इत्यादि दुःखानां सर्वदुःखानां हानिः जायते. अपि च यदा सः प्रसन्नचेतसः भवति तदा बुद्धिः पर्यवतिष्ठते. सो दिस् प्रसन्नचेतस् is the kind of concept what we said about Lord Krishna. Prasanna Chetaha ityukte Krishnaha, Krishnaha ityukte Prasanna Chetaha. That is what when we do the Sagunopasana of Shri Krishna, tatra Prasanna Chetata is one of the attributes which even the sadhaka or the bhakta also gets from the upasana of the sagunopasanaya. Saha prasanna chetaha bhavati sarvada, always being prasanna chetaha. Tena tatra all the other activities of or attributes of sthita prajna follow from that. अनन्तरं पश्यामश्चेत् तत्र इन्द्रियाणां हि चरतां यन्मनः अनुविधीयते तरस्य हरतिप्रज्ञां वायुर्नावमिवाम्भसि. तत्र अस्माभिः दृष्टमासीत् वीसा श्लोका नम्बर् 67 अस्माभिः दृष्टमासीत् कथं हौ एण्ड् हू शुड् बी तत्र कैप्चरिंग हूम और हू शुड बी इन कंट्रोल, व्हाट शुड बी इन कंट्रोल, व्हाट शुड नॉट बी इन कंट्रोल. ऑल दीज वी डिस्कस्ड इन डीटेल्स. तत्र वी सॉ दैट आत्मानं रथिनं विद्धि, आत्मा इज द पैसेंजर. वी टुक सम श्लोकास एंड रेफरेंसेस फ्रॉम कठोपनिषद, फ्रॉम भागवता एंड एक्सप्लेन दिस इन डिटेल. आत्मानं रथिनं विद्धि, आत्मा विल बी द पैसेंजर. देह इज द चैरियट विच इज देयर अराउंड अस. एंड वेन बुद्धि एंड मनस are respectively the charioteer and the manas is the reins, and when the reins is in control of the paramatma Krishna, all the indriyani which is there, which are the horses, will go in the correct direction and it will reach the destination successfully, efficiently, effectively. But when there is a reversal of roles, when the indriyani starts controlling the manas, let us just replace the buddhi here and the indriyani in this chart. What will happen when indriyani starts controlling the manas and buddhi becomes the horse? What happens is extreme destruction. Vayur navam ivambhasi becomes that. The vayu which is there, the wind, when wind starts dictating terms and deciding where the boat should go, the boat will never reach the shore. Rather, what will happen is it will go and hit across a rock and get fully destroyed. That is what is being explained. Tatra tadarthameva the where we see Geetopadesha, which is why lot of people keep the Geetopadesha chart or vigraha grihe sthapayanti kimartham tavat. Every time we see the chart we should be reminded of this. Buddhi paramatma who is there, Paravasudevaha, which is why Krishna should be controlling the manas. Buddhi, which again should be under the control of the Almighty, which is always, when Buddhi is established, Buddhi hi paryavatishtate. What is paryavatishtate? Pari avatishtate. Pari paravasudeve avatishtate. Ityapi svikartum shakyate. When Buddhi hi paryavatishtate, then manas is under his control and the indriyani are also fully under control and tatra sakshatkaraha sulabham bhavati. With this very important concept here, again Vedanta Margeshu, this is an important concept which we have to understand. Who is under control of what? Buddhi is under control and manas is under whether is controlling indriyani. Who is the passenger and what is the deha? This chart also we can always keep along with us, and based on that the 67th shloka can also be understood. Vayurnavam iva ambhasi. very excellent upamanam. Again, the upamanam of whichever is, there are very lesser upamanams which are given, because Vedanteshu tat upamanam datum kinchit klishtam bhavati, because parabrahma you cannot compare it to anything, there is no comparison. But still in Bhagavad Gita we see a few usage of upamam, but they are very powerful and they have multiples and multiples of meanings attached, like the Kurmonganiva, like Vayur Nava Mivambasi. All these have very powerful interpretations which can be understood for days together. Agre Gachamaschet, we saw the next one. Tasmadyasya Mahabaho Nigrihitani Sarvashaha Indriyani Indriyarthebhyah Tasya Prajna Pratishthita. तत्र हे महाबाहो तस्मात् यस्य पुरुषस्य चक्षुरादीनि इन्द्रियाणि इन्द्रियार्थेभ्यः शब्दस्पर्शरूपरसगन्धादिभ्यः तत्र सर्वशः सर्वथा सर्वदा सर्वमार्गेषु सर्वक्षेत्रेषु तत्र निगृहीतानि नियन्त्रितानि कण्ट्रोल्ड् सन्ति चेत् तस्य प्रज्ञा प्रतिष्ठिता भवति. दट् इस् वेन् इट् बिकम्स् स्थिरा बुद्धि, तत्र स्थितप्रज्ञताम् अनुभवितुं शक्यते. पश्यामः श्लोक नंबर 69. आई थिंक वी जस्ट इंट्रोड्यूस दिस श्लोक. एकवारं श्लोकं पठामः एंड देन वी विल अंडरस्टैंड द डीपर मीनिंग्स ऑफ दिस. या निशा सर्वभूतानां तस्यां जागर्ति संयमी यस्यां जागृति भूतानि सा निशा पश्यतो मुनेः. I think we also introduced the shloka and saw a few meanings of this already. अतः किञ्चित् अग्रे गच्छामः. सर्वभूतानां या निशा भवति तस्यां संयमी यः भवति सः जागर्ति. इत्युक्ते सर्वभूतानां कृते या रात्रिः अस्ति, सर्वभूतानि यस्मिन् तत्र अन्धाः सन्ति, यस्मिन् सुप्ताः सन्ति, अजाग्रताः सन्ति, न जागरिताः सन्ति, तादृश अवस्थायां तादृश वस्तुषु तादृश परब्रह्म वस्तुषु तत्र संयमी योगी स्थितप्रज्ञः विधेयात्मा आत्मज्ञानी पंडितः. कः पंडितः? आत्मविषयबुद्धिवान् पंडितः. पंडा आत्मविषयबुद्धिः, पंडितः तादृश पंडितः यः भवति सः येषु वस्तुषु जागरूकः भवति जागर्ति सः जागृतः भवति. वाट् इस् द मीनिङ्ग् आफ् दिस्? तत्र सर्वभूतानि, all the other bhutas which are there, they are always blind or they are always sleeping on this situation or vastu called as parabrahman. They have not been awakened, realized to the parabrahman. Tasmin vastushu ayam tavat yogi yah asti saha jagarti. Samyak. Param bhutani yasyam tatra jagrati, bhutani yasyam jagrati sa तस्य पश्यतः मुनेः, पश्यतः मुनेः, अगेन पश्यतः कः? यः पश्यति सपश्यति तादृश मुनिः, यस्य ब्रह्मणि रमचे चित्तं तादृश पश्यतः मुनिः, पश्यतः विचारवतः आत्मज्ञानिन्. सो हियर पश्यतः इज नॉट जस्ट सीइंग, द रियलाइज्ड मुनि यः अस्ति तस्य तत्र तस्यां वस्तुषु एतस्य तत्र निशा भवति. तत्र अप्रवृत्तिभूमिः प्रवृत्तिभूमिः इत्यपि तत्र डिफरेंस दत्तमस्ति. परं द ओवरऑल कॉन्सेप्ट टू एक्सप्लेन इट इन सिंपल टर्म्स, इन ऑल दोस परब्रह्म वस्तु इन विच द वर्ल्ड इज टोटली ब्लाइंड एंड इट इज स्टिल स्लीपिंग टुवर्ड्स दट, तस्यां योगी अयम संयमी यः अस्ति सः जागर्ति, ही इज अवेकन टू दट. बट इन द मेटीरियलिस्टिक वर्ल्ड विच इज देयर, ऑल द अदर मेटीरियलिस्टिक आस्पेक्ट्स, तत्र जनार्जनम कर्तव्यम, वित्तार्जनम कर्तव्यम, जनार्जनम कर्तव्यम, वस्तुअर्जनम कर्तव्यम, अनन्तरं उपाध्यर्जनम कर्तव्यम, उपाधि इत्यादिकं यद्यदस्ति तेषु सर्वेषु अपि यः तत्र पश्यतः मुनिः, पश्यन् मुनिः यः अस्ति सः तादृश वस्तुषु सः सर्वदा, ही इज ऑलवेज ब्लाइंड टुवर्ड्स दोस ऑब्जेक्ट्स एंड फॉर हिम ऑल दीज आर ऑलवेज अ नाइट ऑब्जेक्ट एंड ही इज स्लीपिंग टुवर्ड्स दोस थिंग्स. जस्ट टू अगेन गिव द क्लियर डिफरेंशिएशन बिटवीन साधारण मनुष्य टुवर्ड्स अ साधक एंड ऑल्सो अस्थित प्रज्ञा. सो ऑल दीज डिफरेंट बेंच मार्क्स डिफरेंट स्टेजेस यदस्ति तत्सर्वं सम्यक प्रतिपादितम अस्ति. And here we also saw the jagarti dhatu. We also we discussed all these sarvabhutanam shashti vakti bahuvachanam. We also discussed that. Interestingly, we also took the dhatu jagarti. Jagr nidrakshaye is the dhatu. Nidrakshaye इज द अर्थ ऑफ द जागृ निद्रा क्षय इज द धातु अदादिगणीय अस्ति तदर्थम जागृति जागृत जागृति सो अगेन जागृति इज बहुवचन एवं भूतानि जागृति सो वी सॉ द टेक्निकल एस्पेक्ट्स ऑफ इट ऑल्सो यस्मिन् सर्वे प्राणिनः न प्रवर्तन्ते तादृशे ब्रह्मणि परब्रह्मणि परवासुदेवे योगी भवति चेत् तत्र योगी सर्वदा प्रवृत्तिशीलः भवति परं यस्मिन् सर्वे प्राणिनः अन्य भूतानि ये सन्ति ते प्रवर्तन्ते तत्र सांसारिक वस्तुषु प्रवर्तन्ते तादृशे विषय प्रपंचे विचारवतः योगिनः तत्र रियलाइज्ड योगी यः भवति तस्य प्रवृत्तिः न भवति तत् अप्रवृत्ति भूमिः भवति फॉर दिस गी क्लियर सम्यक् तत्र अस्ति किल दिस श्लोका इज आल्सो क्वाइट इंपॉर्टेंट वी हैव टू अंडरस्टैंड द डिफरेंशिएटिंग फैक्टर कुत्र योगी एंड अगेन फॉर पीपल हु आर राइटिंग द एग्जाम्स दिस इज वन ऑफ द जनरली फेवरेट श्लोकास विच इज जनरली आस्क्ड इन द एग्जाम्स अलॉन्ग विद द स्टैंडर्ड क्वेश्चंस ऑफ कर्मयोग स्थित प्रज्ञा एंड अदर स्टैंडर्ड क्वेश्चंस दिस अगेन इज वन ऑफ द श्लोकास विच इज ऑलवेज कुत्र योगी तत्र जागृतः कथं जागृतः भवति इज वन ऑफ द इंपॉर्टेंट क्वेश्चंस विच इज ऑलवेज आस्क्ड तदर्थम दिस कैन ऑल्सो बी कॉन्सेंट्रेट अपॉन संधि भागम तत् आई थिंक वी सा दिस संधि कृदंता तद्धितांता यमी संयम अस्य अस्ति इति संयमी मतु प्रत्यय तद्धितांत वी सा दिस पार्ट्स वील गो टू द नेक्स्ट श्लोक श्लोकम एक वारं वदामि सर्वे द्विवारं अनुवदन्तु अनन्तरं पदच्छेदं पश्यामः कर्तृकर्म क्रियान्वेषणं पश्यामः आपूर्यमाणमचल प्रतिष्ठम् समुद्रमापः प्रविशन्ति यद्वत् तद्वत् कामायम् प्रविशन्ति सर्वे सशान्तिमाप्नोति न कामकामी श्लोकम् द्विवारं पठन्तु रीड द श्लोक ट्वाइस कर्तृकर्म क्रियान्वेषणम् कुर्वन्तु पदच्छेदम् पश्यन्तु and any other doubts till now you may ask now you may just type and ask we will be glad to clarify to the extent we know yatha aditam yatha mati tatra clarify kurmah If Vakya is ready, you may type the Vakya. यद्वत् आपः प्रविशन्ति समुद्रमापः सः शान्तिमाप्नोति एक्सलेंट सिंपल किं सः शान्तिमाप्नोति यद्वत् आपः आपूर्यमाणमचल प्रतिष्ठं समुद्रं प्रविशन्ति तद्वत् सर्वे कामाः यं प्रविशन्ति सः शान्तिमाप्नोति न कामकामी एक्सलेंट वेरी वेरी सिंपल अगेन दीज आर द क्वेश्चंस विच अ साधक नेचुरली गेट इन हिज माइंड ओके Guruji, whatever we are doing, if you ask the Sadguru, we are doing all these and then Param, what happens when some Kamana comes to us, that is when we get a little bit shaken and we try to go towards that Kamana and try to achieve it. Is that wrong or shouldn't we do that and should we not get it? Going back, if such questions are coming again and again, we have to go back to the first Karmanyevadhikaraste, that is the foundation shloka. Whatever is the allotted duties, tatra varnashramaritya idasti tat kartavyameva, tatra there is no option out of it. Okay, so yoga hai, karmas kaushalam and also samatvam yoga uchate and also karmanyeva adhikaraste. So it is an adhikara, right, and it has to be done. Param, while doing that, we have to follow all the akamana or avancha sthiti, all these we have to follow that and then slowly move towards nivritti marga. So it is not that directly we should stop doing all actions, whatever we are doing, yet adhyayanam asmabhi kriyate, the studies, yet asmabhi udyoga kriyate, that and yet asmabhi role asti, being housewife, being a student, being any other, all allotted duties. Again, in this yuga, we have again a twin type of duties. ड्यूटीज वर्णाश्रम ड्यूटीज अपि अस्ति तत्र प्रवृत्ति मार्गेषु यत् अस्माभिः स्वीकृतमस्ति तत्र the udyoga marga which is swikrita again there also with all these basics we have to do our work tatrapi yadi if we do with our basics we still we'll have a better chance of survival actually and a happier chance of survival in the corporate world also for people who are there and who want to apply this there also we can still follow all these but finally where we have to go tadrsha destination madhye etat we have to take these shlokas in the right perspective again and understand that and also do our activities now coming back to this said so then how should we implement the sadhana marga how should we be without being disturbed for that there is an example again we can take this as arthantara nyasa alankara yadvat tadvat api asti again we can take it as upaman but there is again a samanya vidya vishesha uttarthantara nyasasyat samanya visheshayoho we can take that also and understand it but we can take an upamanam also what does he say तत्र केवलं जिस्ट् वदामि एकवारं यद्वत् आपः आपूर्यमाणमचलप्रतिष्ठं समुद्रं प्रविशन्ति समुद्रमस्ति वि हाव् द ओशन् आल् अरौण्ड् अस् आल्मोस्ट् दे से टू थर्ड् इस् फिल्ड् विद् ओशन् स्टिल् देर् आर् मोर् अण्ड् मोर् वाटर् विच् इस् देर् फ्रम् आल् द रिवर्स् विच् आर् कमिङ्ग् अण्ड् विच् आर् जायिनिङ्ग् द ओशन् so does it happen in a situation wherein the ocean just leaks out and that is the ocean has goes out of it is full and then it starts overflowing out neva bhavati generally apart from of course tatra tsunami ityadikam bhavati chete tat anyate tat prakriti prakopam yadasti chete tat anyatra anyatra sthapayamah param sadharan ityadi pashyamaschete apah thousands of rivers are on a daily basis every second merging with the ocean and but still what happens the ocean with its own tides which are the waves which are there it is still staying at the same level and it is achalam asti achala pratishtam asti and it is apurimanam bhavati and it does not shake it does not overflow tadrishameva that is all the kamana which come to us that is tadvat sarve kamaha yam pravishanti all the desires if they come which is what again our sadguru was mentioning in the prathama upanyasam he said the asha do come to the other sadhakars tapragya also but when it comes immediately he either burns it out or tatra it comes to him and it gets merged within him itself it does not take the swarupa of activity after that tatra asha agacchati tatra sarve kamaha yam pravishanti sa shantim apnoti the kamanas it come to him and then he immediately goes back to the second shloka prajahati yada kaman sarvan partha manogatan sarvan manogatan kaman te agacchanti they come to him manogatan they come to him and they merge into him and the kamanas lose their self identity and he destroys the kamana itself when these two happen to get together sa shantim apnoti he gets shanti bliss again this is an action shloka this is not a theoretical shloka this is an action shloka how a sadhaka has to now start implementing it sa shanti maapnoti yah kamakami bhavati sah na michinam a very excellently written by anvayam has been very perfectly written yadvat apah apuryamanam achala pratishtam samudram pravishanti tad sarve kamayam pravishanti sah shanti maapnoti simple vakyam rightly written by malati mami saha shant aapnoti kaha shanti maapnoti yah tatra sarvakamanam pravishyam sarvakamanan sva antaryami madhye svikaroti tatra praveshayati bhasmi karoti anantaram prajahati saha shanti maapnoti that person who takes in all the kamanas the kamanas of course when seeing across the kamanas do come in he takes in merges within his antaryamin swarupa and then he tatra saha sarvan prajahati he sacrifices or he becomes sanyastha towards it, tadrusha purushah shantim apnoti. Katham etat shakyate, what is the anvayam for this, what, give an example for this if somebody asks. Yadvat, like apah, all the river waters which is there across all rivers, there are huge rivers. If somebody sees Ganga's force and the vistara of Ganga, we can never imagine that the oceans to which the Ganga goes and flows into can still survive with that brimness, whatever that brimness, they can still there, because it has to overflow again with the speed and humongous amount of water which is available in Ganga. But then the oceans do not overflow and they are still maintaining their state. Again, kimartham tavat tatra samudrasya udaharanam dattamasti samudrohi tarangah kochana samudrona tarangah. Again, we can take arthavagamanam from Vishnu Shatpadi. ఉద్ధృత నగ నగభి దనుజ దనుజ కులామిత్ర మిత్ర శిష్టే దృష్టే భవతి ప్రభవతి నభవతి కిం భవతి తిరస్కార విచ్ ఇస్ ద శ్లోక బృంద సాముద్రోహి తరంగ దర్ ఇస్ అ శ్లోక అగైన్ విష్ణు షట్పది ఇఫ్ యూ సీ దేర్ వీ కెన్ ఈజీలీ అండర్స్టాండ్ వై ద సముద్ర ఎగ్జాంపుల్ హ్యాస్ బీన్ గివన్ అండ్ హౌ ద సముద్ర ఇస్ మేడప్ ఆఫ్ ద వేవ్స్ మత్స్యాదిభిరవతారై అవతారవతావదా సదా వసుధాం పరమేశ్వర పరిపాల్యో భవతా భవతాపభీతోహం. దర్ ఇస్ వన్ మోర్ శ్లోక, ఐ థింక్ వి విల్ సీ దట్, నాట్ అన్ ఇష్యూ. సముద్రోన తారంగ సాముద్రోహి తరంగ నచ సముద్రోన తారంగ. దర్ ఇస్ అ వాక్య టు ఇట్, ఐ విల్ జస్ట్ సర్చ్ దట్, వీ విల్ జస్ట్ సర్చ్ దట్ అండ్ వీ విల్ గెట్ ఇట్. తత్పశ్యామః కిమర్థం తావత్ తత్ర సముద్రస్య ఉదాహరణం దత్తమస్తి ఇతి పశ్యామః. ఎనీవేస్, ఏకవారం ఇదానీం తత్ర కర్త్ర కర్త్ ద ఎక్స్పాన్స్ ఆఫ్ ద ఓషన్ విల్ బి సేమ్. ఇట్ ఈస్ ఎవర్ ఫుల్. ద మైండ్ ఆఫ్ ద ముని ఇస్ ద లైక్ నో మోడిఫికేషన్ ఆఫ్ మైండ్ సచ్ అస్ డిజైర్స్ అండ్ అవర్షన్స్. ఎక్సలెంట్, సమ్యక్ ఉక్తమస్తి. తత్ర ద హౌ ద మైండ్ ఆఫ్ ద ముని ఇస్ ఫుల్, ఇట్ ఈస్ ఫుల్ ఆఫ్ వాట్? It is full of Paravasudeva, it is full of bliss by realizing the Paravasudeva. Therefore, all the other things which come to it, there is no modification, there is no desires, aversions, dukkesh, vanudvignamanaha, sukesh, vigataspraha, param drishtva nivartate. He has already seen the Paravasudeva, his mind is full of that, that is why it is an ocean, because ocean of bliss. That is the bliss. So all these other things which are there do not affect him. Excellently told. Samyagasti, Mami. సమ్యగ్ ఉక్తమస్తి. సో వెరీ వెల్ సెడ్. అగ్రే పశ్యామః ఆపః ఆపూర్యమాణం యద్వత్, అగైన్ యద్వత్ వీ కెన్ టేక్ ఇట్ ఇన్ ద స్టార్టింగ్ ఆల్సో. ఆపః ఆపూర్యమాణం అచల ప్రతిష్టం సముద్రం యద్వత్ ప్రవిశంతి తద్వత్ సర్వే కామాః యం ప్రవిశంతి యం మునిం తత్ర యం విధేయాత్మానం యం స్థితప్రజ్ఞం ప్రవిశంతి సః పురుషః సః విధేయాత్మా ఆత్మజ్ఞానీ పండితః జ్ఞానవాన్ స్థితప్రజ్ఞః కిం కరోతి సః శాంతిం ఆప్నోతి పరమశాంతిం సుఖం పరమానందం ఆప్నోతి ప్రాదమధిగచ్చతి పరం కామకామి భోగాసక్తః నైవ. తత్ర అన్వయం అర్థం ఆపః జలాని సర్వ నదీ జలాని సర్వత్ర వర్తమాన నదీ కూప తటాక వాపి వర్ష ఇత్యాది జాతాని జలాని యది తత్ ఆపూర్యమాణం ఉదకేన పూర్యమాణం నిశ్చలస్థితం సాగరం సముద్రం ఉదధిం యథా యథా ప్రవిశంతి గచ్చంతి అనుగచ్చంతి తథా ఏవ సకలాః అభిలాషాః ఇచ్ఛాః కామనాః వాంఛాః యం పురుషం యం స్థితప్రజ్ఞం పురుషం ఆప్నోతి అధిగచ్చంతి ప్రవిశంతి అనంతరం తే తత్ర భస్మీభవంతి అనంతరం తత్ర ప్రజహాతి తత్ర త్యాగాః భవంతి తదా తాదృశ పురుషః తత్ర పరవాసుదేవం పరమానందం బ్రహ్మానందం సుఖం శాంతిం ఆప్నోతి నతు అన్యః అన్యః నైవ. He could have stopped at Labhate, he could have stopped at Shanti Mapanoti, but he wanted to clearly clarify. Again, he has to clearly clarify. Again, there is a repetition, but again, why that repetition? Because he wants to tell, Kamakami Sadapi Kadapi Na Apanoti, he will never get that Sukha. To stress upon that, he wants to put this. Again, we have seen in lot of these places where Krishna wants to stress certain things, he does not leave it to the next shloka also. he brings tries to bring it within the same shloka and gives that warning message, the clarity message. He puts it, karmanyeva adhikaraste mapaleshukadasana. He could have stopped there, but he said, ma karma phalaketur buhu. My dear friend, just because I am telling all this, do not resort to inaction. Mate sangostu akarmani. Immediately he put it within the same shloka. Similarly, he sells everything, sa shanti mapnoti. He could have stopped there, but he makes it clear, na kama kami. He puts it into the same shloka and explains it and gives that caveat, whatever is there, the warning message. Aapaha strilinga prathama vibhakti bahuvachanam apuryamanam pratishtam samudram sarvam tavat tatra dvitiya bhakti karmapadam yadvat tadvat bhota ravyayam pravishanti. We have already seen this dhatu vishapraveshane. Vishapraveshane is one dhatu, so we will take that vishapraveshane. Again, vishvam can also be understood as vishapraveshane. Vishnu will become vasa achhadane. So both we can understand it in different ways. Here, but here pravishanti is used in vishapraveshane only. So that is praveshane, enter and join, merge. So vishapraveshane, tudadi ganiya hasti. This is in tudadi gana. Parasmeipadi anit sakarmaka dhatuhu swapra upasarga purvaka latlakara prathamavursha ekavachanam vishati vishataha vishanti vishasi vishataha vishata vishami vishavaha vishamaha tadvatavyayam sarve sarva shabda akaranta pullinga prathamavakti bahuchanam kamaha prathamavakti bahuchanam yam dutiyavakti vachanam yad tad shabdas saha. Again, all these are conjoint words. Yad, tad, yadvat, tadvat. They are generally used together. Yatha, tatha, yadi, tarhi. All these words. Shantim, strilinga, dvitiyavakti, ekavachanam. Aapnoti, aapulr. Aapulr, vyaptav is the dhatu. Again, excellent dhatu. He could have also showed. Sa shantim, vindati, he could have used. But why he did not use vindati? Aapnoti he has used. Because aapulr vyaptav. It is fully covered. So saha shantya vyaptaha bhavati. Purataya vyaptaha bhavati. He is fully covered by shanti, ananda, and there is no space for any other kind of bhavana. That is why aapnoti. Aapulr vyaptav is the dhatu. Swadi ganiyaha. Tatra aapnoti, aapnutaha, aapnuvanti, aapnoshi, aapnutaha, aapnutha, aapnomi, aapnuvaha, aapnumaha. Latlakara prathamapurusha ekavachanam. Aapnoti. Excellent usage of the right dhatu in the right place. Kamakami bhogasaktaha, kamakamin, kamakaminau, kamakaminaha. Yasya kamakama api, saha kamakami matu pratyaha, taditantaha. Nakara atra kamin nakaranta pullinga prathamaikavachanam. तात्पर्यं पश्यामः समुद्रः सर्वतः अपि जलैः सह हां सत्यपि भेदापगमने नाथ तवाहं न मामकीनस्तं सामुद्रोहि तरंगः क्वचन समुद्रो न तारंगः. थैंक यू वृंदा. तत्र विष्णु षट्पदी मध्ये श्लोको अस्ति सत्यपि भेदापगमे. तत्र भेदः सत्यपि सति अपि दो दर्ज भेद जीवात्मा परमात्मा सत्यपि भेदापगमे नाथ हे नाथ अहं तव न मामकीनः त्वं. I am yours, you are not mine. Natha, tava, aham. Aham, tava, I am yours. He, natha, aham, tava. Na, mamakinaha, tvam. You are not mine. Kadachana, tatra, bhakti, bhavanayam, kechana, janaha, vadanti. Tatra, tada, anyat. That kind of bhakti, Mirabai or Tukaram kind of bhakti is different. So, let us not confuse that with the Vedanta Shastra here. Natha tavaham na mamakinastvam samudrohi tarangaha kvachana samudro na tarangaha. Again, nice anvaya shloka or a supplementary shloka to this. We can use this and understand these together. Thanks, Brinda. Bhoge āsaktastu shanti māpnoti. Samudraha sarvataha api jalaihi āpūryabānaha bhavati tatha api saha achalam tishtati. Evam sarvepi kāmaha yam pravishanti tarantram yatra bhasmi bhavanti tadanantram yatra yaha prajahati saha purushaha saha stita prajnyaha eva shanti māpnoti. Bhoge āsaktihi yasya bhavati saha purushaha shantim kadapi na āpnoti na prapnoti. पश्यामः कामाहायम कामायम लोपसंधि विसर्गलोपः स शांति स सह शांतिं विसर्गलोपः अचल प्रतिष्ठम अचला प्रतिष्ठा यस्य सह अचल प्रतिष्ठः तम अचल प्रतिष्ठम समुद्रम बहुव्रीहि समासः. आपूर्यमानं आ प्लस प्र प्लस शान पूर्यमानः मानः माना मानम अस्ति एवं शानच प्रत्ययः वर्तमान कृदन्तः व्यमानः पूर्यमाना पूर्यमानम्. तत्र आपूर्यमाणं समुद्रम् अत्र पुल्लिङ्ग फार्म् ओन्ली आपूर्यमाणः समुद्रः अचलप्रतिष्ठः समुद्रः आपूर्यमाणं तम् अचल समुद्रम् that is the anvaya therefore here it is pullinga usage a upasarga pr dhatuh pr dhatu shanach pratyah that is vartamana kridantah any doubts in this no chet agre gantum shakyate evam again practical mashloka any desires yadi agachati chet tatra desires vikurvantu ante eva within the power of your अन्ते तत्र जीवनाग्नि जीवात्मा अग्नि यदस्ति तस्मिन् भस्मीकुर्वन्तु अनन्तरं परित्यजन्तु लेट् इट् कम् टु यू बट् लेट् इट् नाट् मेक् यू शेक् अक्रास् लेट् इट् गेट् मर्ज्ड् विद् इन् योर् अन्तरात्मा इट् सेल्फ् वेन् इट् गेट्स् मर्ज्ड् विद् इन् दट् आटोमेटिक्लि तत्र सर्वान् मनोगतान् कामान् प्रजहाति दट् स्टेट् आफ् मैण्ड् कम्स् तदा तस्य प्रज्ञा प्रतिष्ठिता भवति लेट् इस् द अगेन् अन् इम्प्लिमेण्टेशन् बेस्ड् श्लोक अग्रे पश्यामः स्लोली विल् गो टु 71 विल् इन्ट्रोड्यूस् द श्लोक सी द ओवराल् अर्थ एण्ड् अण्डर्स्टाण्ड् इट् इन् डीटेल् इन् द कमिङ्ग् क्लास् विहाय कामान्यः सर्वान् पुमांश्चरति निःस्पृहः निर्ममो निरहङ्कारः स शान्तिमधिगच्छति पुमां चलतीति अस्ति चरतीति अस्माकं पाठः तत्र वी हव् बीन् टाट् अस् चलति पुमांस् चरति इस् द पाठ हियर् इट् इस् गिवन् अस् चलति पश्यामः द्रष्टुं शक्यते श्लोक द्विवारं पठन्तु रीड् द श्लोक ट्वैस् पदच्छेदं पश्यन्तु कर्तृकर्मक्रियान्वेषणं तत्र वाक्यम् अन्वयवाक्यं कृपया वदन्तु सः शान्तिमधिगच्छति वेरि करेक्ट् सः शान्तिमधिगच्छति सो लैक् तस्य प्रज्ञा प्रतिष्ठिता श्लोक वि हाव् सशान्तिमधिगच्छति श्लोक सो दीस् कः शान्तिमधिगच्छति लाट् आफ् अस् कीप् आस्किङ्ग् ऐ अगेन् इफ् यु सी द सिम्पल् मोस्ट् आब्जेक्ट् आफ् एव्रि अब्जेक्टिव् आफ् एव्रि ह्यूमन् बीङ्ग् पर्पस् आफ् लैफ् यदि वयं पृच्छामश्चेत् फैनलि इट् विल् लीड् अस् टु ओन्ली वन् आन्सर् आक्चुलि What is that answer? I want to be happy. Sarve vadanti. Sarve tatra ask every individual in this world, he'll always say, I want to be happy. Only thing is, tatra there's a definition of happiness which is which differs. Some people look towards temporary happiness. Some people look towards permanent happiness. Permanent happiness yada pashyamas chete, that is what is here referred to as sa shanti madigachati. He gets permanent happiness. So this gives the answer to everybody's kamana or everybody's purpose, objective, question is being answered here. Sa shanti madigachati. Kaha shanti madigachati? Very simple. If you want permanent happiness, you should stop thinking about temporary happiness. Very simple vakya, sir. What you are making comedy if somebody else, it is very difficult to implement. All the temporary vastu yadasti, nisprihaha, nirahankaraha, nirmamaha yadasti, all these are very difficult to leave. When we leave all the objects of temporary happiness, we attain permanent happiness. Shanti madigachati. Simple again. Again, the same thing is what is being told here. Yaha nisprihaha, nirmamaha, nirahankaraha, puman, sarvan kaman vihaya charati. So, we can put the sarvan kaman charati in first. That is easier actually for a sadhaka. Again, from an implementation angle I am saying. From a technical anvaya, this is correct only. Yaha nispruha purushaha sarvan kaman vihaya charati. If this happens, then what happens? Saha nispruha vyadasaha nispruha saha nirmamaha nirahankara shanti madigachati. We can go in a process way anvaya. Right? Fine, no. This is also right. Again, it is not that this anvaya is wrong. It is also right. But again, from a process, this thing, we can take it in an anvaya also. But this is also equally right. Yaha nispruhaha nirmamaha nirahankaraha puman bhavati anantaram saha sarvan kaman charati saha sanshanti madigachati. Can also be taken. Evam api svikartum shakyate. Very correct. विहाय कामान् यः सर्वान् पुमान् चलति निःस्पृहः निर्ममः निरहङ्कारः सः शान्तिम् अधिगच्छति सो पश्यामः यः पुमान् अगेन हौ केन् वी डू दिस् यः पुमान् सर्वान् कामान् विहाय सर्व आशान् विहाय अगेन हौ इस् इट् पासिबल् टु लीव् एव्रिथिङ्ग् आन्सर् इस् वेरि सिम्पल् यु केनाट् स्टाप् फ्रम् डूयिङ्ग् सम्थिङ्ग् यु हेव् टु डू सम्थिङ्ग् देन् वाट् डू सत्सङ्ग गेट् इन् टु सत्सङ्ग परवासुदेवे यदा तत्र भावनां मनः स्थापयामः वेन् वि कीप् अवर् मैण्ड् फोकस् अवर् मैण्ड् आन् द परवासुदेव देन् वाट् हेपन्स् वी डोण्ट् हेव् टैम् फार् थिङ्किङ्ग् अबौट् आल् द अदर् kamana the materialistic thing very simple when we don't have time for that we stop slowly stops feeding into us tatra then it is easy for sarvan kaman to tyaga to do tyaga of all the sarvan kaman when that happens we automatically become nispraha when we become nispraha there is no nirmama mamata nasti that this is mine there is no egoism at all because ego is the three letter word which actually is the cause of every problem in this world like we say that the happiness is the object of in pursuit of happiness everybody is in pursuit of happiness only so yada tat like that is the single destination the only problem if we see or the only obstacle towards all these is mamata bhavah ahankara swabhavah the sense of I the sense of mine the ego the three letter word which is there that is the cause of everything so when we sacrifice that also tari shantirev adigacchanti perfect all ethical and spiritual life is always directed towards the elimination of ego perfect well said excellent all ethical and spiritual life again everything what we are doing why should we do karma why should we do nishkama karma why should we do bhakti marga why should we do everyday puja adikam satsanga why should we do all this why are all these prescribed if somebody says no god is everywhere and I see god in all my activities I don't need all these things if you have really reached that level it is very good otherwise in a pseudo level if you are just telling the all these things it will not serve the purpose so therefore all these ethical and spiritual life which we do is only directed towards the elimination of ego when the elimination of ego's gum is happened we go to the state of natha tavaham na mamakinastvam there is no mamakinata that is where this shloka also helps at natha tavaham na mamakinastvam then when that mamakina the ego is eliminated when we become into that nirmamata then shanti madigacchati so shanti madigacchati is what he is merged with the buddhi hi paryavatirate shanti madigacchati saha aanandam praapnoti prasadam adigacchati all these are same words and same connotations शीघ्रम् एकवारं पश्यामः यः पुमान् सर्वान् कामान् विहाय निःस्पृहः निर्ममः निरहङ्कारः चलति सः शान्तिम् अधिगच्छति It's already 3 minutes and some people might have other assignments. Yet, kim kurmaha? We will stop at this. We will again see the detailed artha of this. The padapadanvaya, padapadartha, padaparichaya, the grammatical notations, we will see it in the coming class. But again, the overall concepts have been repeated many times but still it gives the feeding or it tries to eliminate even the smallest of doubts of the sadhaka and puts him into the right path which is why there are many multiple repetitions which are being done ekavaram shloka muktva adya viramamah vihaya kaman yas sarvan pumam charati nispruhah nirmamo nirahankarah sashanti madhigachati यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम गुरुदेव गतिः गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो सर्वेभ्यः अनन्तानन्त धन्यवादाः थ्याङ्क्स् अलाट् फार् पार्टिसिपेटिङ्ग् इन् दिस् डिस्कशन् सीरीस् एनी न्यू ऐडियास् कान्सेप्ट्स् श्लोकास् अन्वयास् इफ् यु फैण्ड् इट् आल्सो प्लीस् डू डिस्कस् इट् इस् आल् ओब्वियस्लि अ शेरिङ्ग् क्लास् फार् आल्